ओम नमो भगवते वासुदेवाय। अथ विंशोऽध्यायः। श्रीशुक उवाच। बलिरेवं गृहपतिः कुलाचार्येण भाषितः। तूष्णीं भूत्वा क्षणं राजन्नुवाच वहितो गुरुम्। बलिरुवाच, सत्यं भगवता प्रोक्तं धर्मोऽयं गृहमेधिनाम्। अर्थं कामं यशो वृत्तिं यो न बाधेत कर्हिचित्, स चाहं वित्तलोभेन प्रत्याचक्षे कथं द्विजम्। प्रतिश्रुत्य ददामीति प्रहर्रादिः कृतवो यथा। नय्य सत्यात् परो धर्म इति होवाच भूरियम्। सर्वं सोढुमलं मन्ये रितेलीकपरं नरम्। नाहं बिभेमि निरयान्नाधन्याद सुखार्णवात्, न स्थानच्यवनान् मृत्योर्यथा विप्रप्रलम्भनात्। यद्यद्धास्यति लोकेऽस्मिन् सम्परेतं धनादिकं, तस्य त्यागे निमित्तं किं विप्रस्तुष्येन्न तेन चेत्। श्रेयः कुर्वन्ति भूतानां साधवो दुश्चजासुभिः, दद्यंशिभिः प्रभृतयः को विकल्पो धरादिषु। यैरियं बुभुजे ब्रह्मन् दैत्येन्द्रैरनिवर्तिभिः, तेषां कालो ग्रसील्लोकान् न यशोऽधिगतं भुवि। सुलभायुधि विप्रर्षे यनिवृत्तास्तनुत्यजः, न तथा तीर्थ आयाते श्रद्धया ये धनत्यजः। मनस्विनः कारुणिकस्य शोभनं यदर्थिकामोपनयेन दुर्गतिः, कुतः पुनर्ब्रह्मविदां भवादृशां ततो वटोरस्य ददामि वाञ्छितम्। यजन्ति यज्ञक्रतुभिर्यमादृता भवन्त आम्नाय विधानकोविदाः, स एव विष्णुर्वरदोऽस्तु वापरो दास्याम्यमुस्मै क्षितिमीप्सिताम् मुने। यदप्यसावधर्मेण माम् बध्नीयादनागसम्, तथाप्येनम् न हिंसिष्ये भीतम् ब्रह्मतनुम् रिपुम्। एष वा उत्तमश्लोको न जिहासति यद्यशः, हत्वा मैनाम् हरेद् युद्धे शयितनिहतो मया। श्रीशुक उवाच, एवमश्रद्धितम् शिष्यमनादेशकरम् गुरुः। शशापदैव प्रहितः सत्यसन्धम् मनस्विनम्, दृढम् पण्डितमान् यज्ञस्तब्धोऽस्यस्मदुपेक्षया। मच्छासनातिगो यस्त्वमचिराद् भ्रस्यसे श्रियः, एवम् शप्तः स्वगुरुणा सत्यान्न चलितो महान्। वामनाय ददावेनामर्चित्वोदकपूर्वकम्। विन्ध्यावलिस्तदागत्य पत्नीजालकमालिनी, आनिन्येकलसंहैममवने जन्यपाभृतम्। यजमानः स्वयं तस्य श्रीमत्पादयुगम् मुदा, अवनिज्यावहन्मूर्ध्नि तदपो विश्वपावनीः। तदा सुरेन्द्रम् दिवि देवता गणा गन्धर्वविद्याधरसिद्धचारणाः, तत्कर्म सर्वेऽपि गृणन्त आर्जवम् प्रसूनवर्षैर्ववृषुर्मुदान्विताः। नेतुर्मुहुर्दुन्दुभयः सहस्रशो गन्धर्व किम् पुरुष किन्न राजगुः। मनस्विनानेन कृतम् सुदुष्करम् विद्वानदाद्य द्रिपवे जगत्त्रयम्। तद्वामनम् रूपमवर्धताद्भुतम् हरेरनन्तस्य गुणत्रयात्मकम्। भूखम् दिशो द्यौर्विवरापयोधयस्तिर्यम् नृदेवा ऋषयो यदासत। काये बलिस्तस्य महाविभूते सहर्त्विकाचार्य सदस्य एतत्। ददर्श विश्वम् त्रिगुणम् गुणात्मके भूतेन्द्रियार्थाशय जीवयुक्तम्। रसामचष्टाङ्घ्रितलेऽथ पादयोर्महीम् महीद्रान् पुरुषस्य जङ्घयोः। पतत्रिणो जानुनि विश्वमूर्तेरुर्वोर्गणम् मारुतमिन्द्रसेनः। सन्ध्याम् विभोर्वाससि गुह्य ऐक्षत् प्रजापतीन् जगने आत्ममुख्यान्। नाभ्याम् नपः कुक्षिषु सप्त सिन्धूनुरुक्रमस्योरसि चर्क्षमालाम्। हृद्यङ्गधर्मम् स्तनयोर्मुरारेरृतम् च सत्यम् च मनस्यथेन्दुम्। श्रियम् च वक्षस्य रविन्दहस्ताम् कण्ठे च सामानि समस्तरेफान्। इन्द्रप्रधानानमरान् भुजेषु तत्कर्णयो ककुभो द्यौश्च मूर्ध्नि। केशेषु मेघान् श्वसनम् नासिकायामक्ष्णोश्च सूर्यम् वदने च वह्निम्। वाण्याम् च छन्दान् शिरसे जलेशम् भ्रुवोर्निषेधम् च विधिम् च पक्ष्मसु। अहश्च रात्रिम् च परस्य पुंसो मन्युम् ललाटे धर एव लोभम्। स्पर्शे च कामम् नृपरेत सोऽम्भः, पृष्ठे त्वधर्मम् क्रमणेषु यज्ञम्। छायासु मृत्युम् हसिते च मायाम् तनुरुहेष्वोषधिजातयश्च। नदीश्च नाडीषु शिलानखेषु बुद्धावजम् देवगणान् ऋषींश्च। प्राणेषु गात्रे स्थिरजङ्गमानि सर्वाणि भूतानि ददर्शवीरः। सर्वात्मनीदम् भुवनम् निरीक्ष्य सर्वे सुराः कश्मलमापुरङ्ग। सुदर्शनम् चक्रमसह्यतेजो धनुश्च सार्गम् स्तनयित्नुघोषम्। पर्जन्य घोषो जलजह पांचजन्यः कौमोदकी विष्णुगदातरस्विनी विद्याधरोऽसि शतचन्द्रयुक्तस्तूणोत्तमा वक्षयसायकौ च सुनन्दमुख्या उपतस्थुरीशम् पार्षदमुख्या सह लोकपालाः स्फुरत्किरीटाङ्गदमीनकुण्डलश्रीवत्सरत्नोत्तममेखलाम्बरैः मधुव्रतस्रग्वनमालयावृतोरराजराजन् भगवानुरुक्रमः क्षितिम् पदैकेन बलेर्विचक्रमे नपः शरीरेण दिशश्च बाहुभिः पदम् द्वितीयम् क्रमतस्त्रिविष्टपम् न वै तृतीयाय तदीयमण्वपि उरुक्रमस्याङ्घ्रिरुपर्युपर्यथो महर्जनाभ्याम् तपसः परम् गतः ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायामष्टमस्कन्धे विश्वरूपदर्शनम् नाम विंशतितमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।